इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। पहलगाम आतंक्याक्रमणस्य प्रथमवर्षस्यावसरे राष्ट्रस्य श्रद्धाञ्जलिः। वैश्विकनेतारः भारतेन सह ऐक्यभावं दृढीकुर्वन् भयोत्पादनस्य निन्दां च कुर्वन्तः सन्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् प्रशासनिक अधिकारिणः विकसित भारतस्य निर्माणलक्ष्येन सह सर्वान् प्रयत्नान् योजयितुम् आहूतम्। पश्चिमेशिया संघर्षस्य मध्ये तैल प्राकृतिक वातेन्धनस्य अविरामापूर्तिं सर्वकारेण आश्वासितम्। एलपीजी पीएनजी पेट्रोल डीजल इत्येतेषाम् आपूर्तिः राष्ट्रव्यापि रूपेण स्थिरास्ति। वैदिकानुष्ठानेन सह भक्तानां कृते केदारनाथ धाम्नः द्वाराणि उद्घाटितानि। भक्तानां प्रबलसंख्यायां मध्ये प्रधानमन्त्रिणः नरेन्द्रमोदिनः कृते प्रथमा प्रार्थना अभवत्। अपि च भारत ऋतुविभागेन आगामि दिनद्वयोः दिल्ल्याः उत्तर मध्य राज्याणां च अनेकेषु राज्येषु उष्णतरङ्गस्य सञ्चेतना प्रसारितास्ति। अथ वार्ताः विस्तरेण। पहलगाम आतंक्याक्रमणस्य प्रथमवर्षस्य अवसरे यूरोपीयसंघः भारतेन सह ऐक्यभावं प्रकटितवान्। एकस्मिन् वक्तव्ये यूरोपीयसंघः अवदत् यत् गतवर्षे अप्रैलमासस्य द्वाविंशतिदिनांके आक्रमणे मृतानां षड्विंशति पीडितानां स्मरणे भारतस्य जनैः सह अस्ति। यूरोपीयसंघः सर्वविधप्रकाराणां भयोत्पादनस्य दृढं निन्दां करोत्। नवदिल्ल्यां ब्रिटिश उच्चायोगेनापि श्रद्धाञ्जलिः समर्पितम्। सहैव शान्तेः सुरक्षायाः च प्रतिबद्धतां पुनः दृढीकृतम्। अयम् आक्रमणः जम्मूकश्मीरप्रदेशे अभवत्। पाकिस्तानस्य लश्करे तैयबा इत्यनेन संघटनेन कृतः आसीत्, यस्मिन् अधिकांशाः पर्यटकाः मृताः। घटनायाः अनन्तरं भारतं पाकिस्तानाधिकृते जम्मूकश्मीरप्रदेशे भयोत्पादक आधारिक संरचनानां लक्ष्यीकृत्य ऑपरेशन सिन्धूर इत्यस्य आरम्भोऽपि कृतम्। प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रशासनिक अधिकारिणः विकसितभारतस्य निर्माणलक्ष्येन सह सर्वान् प्रयत्नान् योजयितुम् आहूतम्। देशस्य प्रशासनिकसेवकेभ्यः लिखिते पत्रे श्रीमोदी निरन्तराधिगमे क्षमता निर्माणे च तेषां प्रतिबद्धताम् अंगीकृतवान्। सद्यैव समाप्यमाने कर्मयोगी साधना सप्ताहे प्रशासनिकसेवकाः उत्साहपूर्वकं भागग्रहणाय अभिनन्दयन् सः अवदत् यत् अस्मिन् सप्ताहे अधिगमोत्सवे सम्पूर्णे देशे नागरिकसेवकाः उत्साहेन सह सम्मिलिताः अभवन्। अद्य प्रशासनेन उक्तं यत् देशे तैलस्य वातेन्धनस्य च अविरामापूर्तिः सुनिश्चीयते। पश्चिमेशिया विवादस्य विषये नवदिल्ल्याम् अन्तामन्त्रालयीयं विवरणं सम्बोधयन्ती पेट्रोलियम् प्राकृतिक गैस मन्त्रालयस्य संयुक्त सचिवः सुजाता शर्मा इत्येषा अवदत् यत् देशे एलपीजी पीएनजी पेट्रोल डीजल इत्येतेषां सामान्यापूर्तिः सुनिश्चेतुं सर्वविधोपायानि कृतानि सन्ति। सावोचत् यत् गृह्य एलपीजी इत्यस्य आपूर्तिः सामान्यः अस्ति, तथा च ह्यः पञ्चचत्वारिंशल्लक्षाधिकानि आरक्षणानि पञ्जीकृतानि, तथा च प्रायः एकपञ्चाशल्लक्षानि यावत् गृह्य एलपीजी इत्येतानि वितरितानि। सा अग्रे अवदत् यत् ह्यः अष्टसहस्राधिक टन परिमितं यावत् वाणिज्यिक एलपीजी आवंटितानि। उद्योगप्रवर्धन विभागस्य तथा आन्तरिक व्यापार विभागस्य च संयुक्त सचिवः निधि केसरवानी इत्येषा अवदत् यत् संकोचितस्य प्राकृतिक गैस इत्यस्य तथा जैविक गैस इत्यस्य च अन्तर्गतं वितरण केन्द्राणां कृते अनुज्ञापत्राणाम् आवंटन प्रक्रिया त्वरितीकृता अस्ति। प्रियाः श्रोतारः, संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। तमिलनाडु राज्ये एकचरणीय मतदानस्य कृते पश्चिम बंग प्रदेशे श्वः विधानसभा निर्वाचनस्य प्रथम चरणीय मतदानस्य च कृते सर्वाः व्यवस्थाः कृताः सन्ति। तमिलनाडु राज्ये राज्यस्य सर्वेषु 43-200 निर्वाचन क्षेत्रेषु मतदानं भविष्यति। प्रसारमाध्यमान् सम्बोधयन्ती राज्यस्य मुख्य निर्वाचनाधिकारिणा अर्चना पटनायक इत्येषा अवदत् यत् राज्ये सर्वत्र स्थापितेषु 64,570 मतदान केन्द्रेषु प्रायः 73,5,00,000 मतदातारः स्वमतानां प्रयोगं करिष्यन्ति।
This is to request all voters.
सभी मतदाताओं से अनुरोध है कि अपने अपने मतदान केंद्रों पर आकर अपना वोट डालें। मतदान केंद्रों पर सभी आवश्यक सुविधाएं उपलब्ध कराई गई हैं ताकि सभी मतदाताओं के लिए एक अच्छा अनुभव हो। मतदान केंद्रों पर पीने का पानी, साफ सफाई, छाया, दिव्यांग वोटर्स के लिए शामियाना की सुविधा है, बुजुर्गों के लिए बेंच है, ऐसी सभी सुविधाएं मौजूद हैं।
All such facilities have been kept in place.
पश्चिम बंगाल राज्ये प्रथमे चरणे 16 मण्डलानां 25,100 समाविष्टानि सन्ति। अस्मिन् चरणे 1,400 अभ्यर्थिनः स्पर्धायां सन्ति। राज्ये द्वितीय चरणस्य मतदानम् अस्मिन्नेव मासे 29 दिनांके भविष्यति। उत्तराखण्डे अद्य प्रातः 8 वादने वैदिकमन्त्रैः पारम्परिकानुष्ठानैः च सह भक्तानां कृते केदारनाथ धाम्नः द्वाराणि उद्घाटितानि। तत्र उपस्थितानां बहुसंख्यकानां भक्तानां मध्ये उत्साहस्य, भक्तेः च अद्वितीयः संगमः दृष्टः। अस्मिन् अवसरे उदग्र विमानेन मन्दिरे पुष्पवृष्टिः अभवत्। प्रथमा पूजा प्रधानमन्त्रिणः नरेन्द्रमोदिनः कृते कृता आसीत्। मुख्यमंत्री पुष्कर सिंह धामी अपि अस्मिन् अवसरे उपस्थितः आसीत्। भारत ऋतु विज्ञान विभागेन आगामिषु दिनद्वयोः राष्ट्रिय राजधानी प्रदेशे उष्ण लहर प्रति पीतवर्णीया संचेतना प्रसारिता अस्ति। विभागेन पूर्वानुमानं कृतं यत् आगामि दिनद्वयोः हरियाणा चण्डीगढ़े, पंजाब उत्तरप्रदेशे, मध्यप्रदेशे, छत्तीसगढ़ इत्येतेषु राज्येषु च उष्ण तरंगः प्रवर्तिष्यते। तथैव ओडिशा, राजस्थान, गंगीय तटवर्ती पश्चिम बंग राज्येषु च एतादृशी स्थितिः अपेक्षते। पर्यावरण संरक्षणस्य समानार्थम् अद्य सम्पूर्णे विश्वे भूदिवसः आचर्यते। प्रथमवारं 70-1900 वर्षे आचर्यमाणः अयं दिवसः 69-1900 वर्षे यूनेस्को सम्मेलने प्रस्तावितः। पृथिव्याः संरक्षणस्य आवश्यकतायाः विषये जनानाम् अवधानम् आकर्षयति। उपराष्ट्रपते सीपी राधाकृष्णनवर्यः नागरिकान् गृहस्य रक्षणार्थं स्वस्वप्रतिबद्धतां पुनरुद्धारयितुं प्रार्थितवान्। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् मानवस्य कल्याणं भूमेः संरक्षणे अवलम्ब्यते। अस्मिन् अवसरे आकाशवाणी वार्तासेवाविभागस्य महानिदेशक धीरज एम् काकडिया नवदिल्ल्यां आकाशवाणी भवने अधिकारिभ्यः कर्मचारिभ्यः च पर्यावरण संरक्षणाय प्रतिज्ञां कारितवान्। महिला क्रिकेट क्रीडायाम् अद्य रात्रौ जोहान्सबर्ग नगरस्य वांडर्स क्रीडांगणे पञ्चक्रीडाश्रृंखलायाः 23-20 अन्ताराष्ट्रिय क्रीडा भारतं दक्षिणाफ्रीका देशेन सह स्पर्धिष्यति। एषा क्रीडा भारतीय समयानुसारं रात्रौ 9:30 आरभ्यते। आईपीएल क्रिकेट स्पर्धायां लखनऊ सुपर जायंट्स दलं राजस्थान रॉयल्स दलं सम्मुखीकरिष्यति। स्पर्धा सायं 7:30 आरभ्यते। अन्ते मुख्य वार्ताः पुनः एकवारम्। पहलगाम भयोत्पादक आक्रमणस्य प्रथम वर्षस्य अवसरे राष्ट्रस्य श्रद्धांजलिः। वैश्विकनेतारः भारतेन सह ऐक्यभावं दृढीकुर्वन् भयोत्पादनस्य निन्दां च कुर्वन्तः सन्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रशासनिक अधिकारिणः विकसित भारतस्य निर्माणलक्ष्येन सह सर्वान् प्रयत्नान् योजयितुम् आहूतम्। पश्चिमेशिया संघर्षस्य मध्ये तैल प्राकृतिक वातेन्धनस्य अविरामापूर्तिं सर्वकारेण आश्वासितम्। एलपीजी, पीएनजी, पेट्रोल, डीजल इत्येतेषाम् आपूर्तिः राष्ट्रव्यापी रूपेण स्थिरास्ति। वैदिकानुष्ठानेन सह भक्तानां कृते केदारनाथधाम्नः द्वाराणि उद्घाटितानि इति वार्ताः।